एकम भूत्काननं द्वौ तत्र महावृक्षौ तयोरथस्त्रयो मृगाश्चत्वारश्चैव शावकाः व्याधाः पञ्च तत्र प्राप्य षट्सु जालेषु तान् सङ्गृह्य सप्त मृगा अद्य लब्धा इत्यनन्दन् परमलुब्धा अष्टशुका एतद्वीक्ष्य नवबिलेषु चिरमन्विष्य दश समानयन्वेगेन मूषकान् सुतीक्ष्णदन्तान् शुकालापसक्तेषु व्याधेषु मूषकैश्च छिन्नेषु जालेषु मृगा धृता शुका प्लुता मूषकाश्च बिलं प्रविष्टाः।